दृष्टमासीत् श्लोका नंबर 20-23 वीसा अर्जुन उत्साह अनन्तरं 24-27 तत्र उभयोः सेनयोः मध्ये कृष्णेन हृषीकेशेन अर्जुनस्य रथस्थापनं सर्वेषां बन्धुदर्शनमपि अस्माभिः तत्र दृष्टमस्ति श्लोका 24-27 वीसा दट् अनन्तरं श्लोका 28-30 इस् अर्जुनस्य विषादप्रारम्भः अर्जुनविषादप्रारम्भः भवति तत्र दैहिकमानसिक तत्र बाधा यत् अर्जुनेन तत्र बाधमाना आसीत् तदस्माभिः दृष्टमस्ति 31 ओके श्लोका नम्बर् 31 तत्र विपरीतानि निमित्तानि आसन् तत्सर्वं श्लोका 31 मध्ये दृष्टमस्ति 32 सः सम्यक् वदति न काङ्क्षे विजयं न च राज्यं न भोगि किं भोगैः जीवितेन अहं किं करोमि इति सः डिसैड् कृत्वा सः वदति एवं तत्र वी सा दीस् श्लोकास् इन् द प्रीवियस् क्लासस् नौ लेट् अस् सी श्लोक 32 तत्र अर्जुनः कृष्णं प्रति वदति हे कृष्ण विजयं वा राज्यं वा सुखानि वा न काङ्क्षे ऐ डु नाट् वाट् एनी आफ् दीस् हे गोविन्द तत्र भोगैः तत्र राज्येन भोगैः किं वा अस्माभिः कर्तुं शक्यते किम् अस्माकं किं प्रयोजनम् अस्ति इति श्लोकं 32 मध्ये अस्माभिः दृष्टमस्ति 33-34 अपि अस्माभिः गतकक्षायां दृष्टमस्ति येषां जनानां कृते येषां बन्धुमित्रजनानां परिवाराणां कृते तत्र राष्ट्रं वा भोग्यवस्तूनि सर्वं सुखदायकानि वस्तूनि तत्र मया ईप्सितमासीत् ते सर्वे जनाः ये आचार्याः वा वृद्धः वा पितरः वा पितृतुल्याः पुत्रतुल्याः पितामहाः मातुलाः ये सन्ति ते सर्वे तत्र स्वप्राणानि धनानि त्यक्त्वा अस्मिन् युद्धे एव अवस्थिताः सन्ति ते अपि प्रायशः मरणमेव प्राप्नुवन्ति तर्हि तत्र तादृश सुखानि भोगानि वा स्वीकृत्य तत् प्राप्य मया किं कर्तुं शक्यते केन सह अहं तस्य भोग्यं करोमि इति सः पृच्छति अनन्तरं 35 श्लोका मध्ये सः वदति हे मधुसूदन त्रैलोक्यराज्यस्य हेतोः अपि तत्र यदि तत्र एते आगत्य वदन्ति तत्र त्रैलोक्यराज्यमपि स्वीकरोतु अस्मान् मारयित्वा इति ते वदन्ति चेदपि त्रैलोक्यराज्यस्य कारणेनापि प्रथमं कारणं द्वितीयं तावत् अपि मारितोपि एतैः अहं मारितोपि अहं एतान् हन्तुं न इच्छामि ईवन् वित् गेटिङ्ग् द आल् द त्री वर्ल्ड्स् एण्ड् ईवन् इफ् दे आर् ट्रैङ्ग् टु किल् मी ईवन् देन् ऐ डु नाट् वाण्ट् बट् इन् दिस् केस् इट् इस् ओन्ली फार् अ वेरि वेरि अल्पसुखं तावत् तत्र अल्पराज्यकृते मया एतानि सर्वाणि एते सर्वे तत्र मारयितव्याः चेत् तत्र तत् मम वाञ्छा नास्ति तस्मिन् मध्ये इति अर्जुनः वदति दिस् इस् सीन् इन् द प्रीवियस् क्लासस् अद्य श्लोका नम्बर् 36 पश्यामः एकवारं श्लोकं वदामि सर्वे अनुवदन्तु निहत्य धार्तराष्ट्रान्नः का प्रीति स्याज्जनार्दन पापमेवाश्रयेदस्मान् हत्वैतानततायिनः पूर्णश्लोकं वदामः निहत्य धार्तराष्ट्रान्नः का प्रीति स्याज्जनार्दन पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः पूर्णतया श्लोकं पठन्तु यावत् वयम् अग्रे गच्छामः तावत् सर्वश्लोकाः ये कृताः तान् सर्वान् मननं कुर्वन्तु कृपया इति प्रार्थना Let us try to byheart the shlokas as and we go front because that is the one of the easiest way to understand any grantha. Yadi tatra shloka mananam asti chete shlokasya if you have byheart shlokas, that is if you have learned the shlokas by heart, then the real byheart, understanding the shloka by heart will also easily happen. So we'll try to do that. भवतु। इदानीं श्लोक नंबर 36 मध्ये स्मः, पदच्छेदः पश्यन्तु। एज ऑलवेज कर्तृ कर्म क्रियां वदन्तु। स्यात् आश्रयेत् वर्ब्स्, वेरी गुड। का प्रीति ही नाउन फॉर द स्यात्, फॉर द आश्रयेत् व्हाट विल बी दिस थिंग नाउन, प्रीति ओके, बट फॉर द आश्रयेत् डैश एव डैश आश्रयेत् पापम एव डैश कर्त कर्म पदम अस्मान ओके अस्मान भवतु पापमेव अस्मान् आश्रयेत् का प्रीतिः स्यात् ओके टू वी कैन मेक टू सेंटेंसेस कविद कर्तृकर्मप्रिया तत्र वाक्यद्वयं कर्तुं शक्यते श्यामः इदानीं एतान् आततायिन हत्वा एतान् आततायिनः हत्वा पापमेव आश्रयेत् ओके फाइन भवतु इदानीं पश्यामः अन्वयं पश्यामः हे जनार्दन धार्तराष्ट्रान् निहत्य नह का प्रीतिः स्यात् तत्र धार्तराष्ट्रान् हत्वा नह का प्रीतिः स्यात् इज द फर्स्ट लाइन प्रथमं वाक्यं तावत् तत्र एतान् धार्तराष्ट्रान् हत्वा का प्रीतिः स्यात् इज द फर्स्ट लाइन द्वितीय वाक्यं तावत् एतान् हत्वा पापम् एव अस्मान् आश्रयेत् एतान् हत्वा अस्माकं पापम् एव अस्मान् आश्रयेत् इज द सेकंड वाक्यं अतीव सरलम् अस्ति तत्र किमपि क्लेशः नास्ति तत्र नो कॉम्प्लिकेटेड वर्ड्स सरलम् अस्ति पश्यामः हे जनार्दन हे कृष्ण हे वासुदेव हे सर्वव्यापिन धार्तराष्ट्रान् धृतराष्ट्रस्य ये पुत्रन्ति तत्र धार्तराष्ट्रः इत्युक्ते कौरव सैन्ये ये सन्ति तान् सर्वान् वा तत्र ये तत्र धृतराष्ट्र वा धार्तराष्ट्र सैन्य संबंधिनः ये सन्ति तान् सर्वान् हत्वा मारयित्वा निहत्य का प्रीतिः स्यात् प्रीतिः अत्र आनन्दः वा तत्र किं कारणं किं प्रयोजनम् इति स्वीकर्तव्यं का प्रीतिः नः अस्माकं नः का प्रीतिः कीदृशी आनन्दः किं प्रयोजनं वा स्यात् भवेत् फर्स्ट हि इज ट्रैङ्ग् टु अगेन् अर्जुनः स्वविषादे हि इज ट्रैङ्ग् टु लीसन् औट् अण्ड् गिव् लाजिक्स् टु हिस् डिसिशन्स् हे कृष्ण धार्तराष्ट्रान् धृतराष्ट्रपुत्रान् धृतराष्ट्रसम्बन्धि कौरवसैन्यजनान् निहत्य हत्वा मारयित्वा का प्रीतिः किं प्रयोजनं कीदृशी आनन्दः नः स्यात् नः भवेत् अस्माकं शक्यते अन्यच्च प्रथमं तावत् देर् इस् नो पासिटिव् बेनिफिट् प्रथमं तावत् प्रथमवाक्ये सः वदति तत्र पासिटिव् बेनिफिट् किमपि नास्ति अन्यच्च द्वितीयवाक्ये सः वदति एतान् यदि अहं हन्मि यदि अहम् एतान् हन्मि इन् केस् ऐ किल् देम् एतान् हत्वा एतान् जनान् सर्वान् मारयित्वा तत्र एते सर्वे कीदृशजनाः वाट् कैण्ड् आफ् पीपल् दे आर् आल् आततायिनः वि विल् सी द डेफिनेशन् वेरि सून् आततायिनः तत्र आङ्ग्लभाषायां किमपि डेस्पेरडोस् इति दत्तमस्ति परम् आततायिनः इत्युक्ते ये षड्विध दुष्टकार्यं कृतवन्तः ते आततायिनः दोस् पीपल् हु हव् डन् सिक्स् कैण्ड् आफ् बेड् आक्टिविटीस् दे आर् काल्ड् एस् आततायिनः बेसिक्लि पीपल् हु हव् नौ कम् टु किल् द पाण्डवास् आततायिनः एतान् हत्वा दीस् बेड् पीपल् इफ् वि किल् वि विल् ओन्ली गेट् मोर् पापम् एव अस्मान् आश्रयेत् तत्र पाप अघः किल्बिषं यत् भवति तदेव अस्मान् आश्रयेत् प्राप्नुयात् सो प्रथमं वाक्यं तावत् पॉजिटिव् किमपि बेनिफिट् नास्ति द्वितीयं वाक्यं तावत् एतान् तत्र दुष्टजनान् यदि अहं हन्मि तर्हि अधिकं पापमेव भवति मम इति सः अतीव निश्चप्रचं सः वदति इदानीं दीस् आर् द टू सेण्टेन्सेस् इन् श्लोक नम्बर् 36 एकवारं पदपदार्थं पश्यामः अनन्तरं पदपरिचयमपि पश्यामः हे जनार्दन हे कृष्ण धार्तराष्ट्रान् धृतराष्ट्र सम्बन्धि सैनिकान् धृतराष्ट्रस्य पुत्रान् तत्सम्बन्धिनः सर्वे अपि निहत्य मारयित्वा का प्रीतिः किं प्रयोजनं कीदृशी आनन्दः नः अस्माकं सर्वेषां कृते पाण्डवानां कृते का प्रीतिः भवेत् किं प्रीतिं किं प्रयोजनं भवितुं शक्यते कीदृशी आनन्दः जनयितुं शक्यते इति सः पृच्छति आततायिनः दुष्टजनान् एतान् सर्वान् कौरवसैनिकान् हत्वा नाशनं कृत्वा मारयित्वा पापम् अघः एव अस्मान् प्राप्नुयात् अस्मान् विन्दति पापमेव अस्मान् विन्दति इति सः वदति इदानीं पदपरिचयं तत्र पश्यः जनार्दन हे जनार्दन अकारान्तपुल्लिङ्गसम्बोधन एकवचनं सरलमस्ति धार्तराष्ट्रान् द्वितीया बहुवचनं निहत्य लबन्ताव्ययं लप् प्रत्ययः का प्रीतिः का स्त्रीलिङ्गप्रथमैकवचनं प्रीतिः अपि स्त्रीलिङ्गप्रथमैकवचनं नः अस्मच्छब्दस्य दकारान्तः त्रिलिङ्गकः अस्मच्छब्दः अस्मच्छब्दस्य षष्टिभक्ति बहुवचनं मम मे आवयोः नौ अस्माकं नः स्यात् स्यात् यदि वयं पश्यामश्चेत् अतीव सरलमस्ति इट् इस् अ सिम्पल् धातु बट् द लकार वि जस्ट् हव् टु सी all of we all of us know astistah santi which is the asubhuvi dhatu and belongs to adadi gana it belongs to adadi gana in this adadi gana atra as dhatoh ling lakarah tatra api vidhi ling lakarah prathama purusha ekavachana syat iti agacchati bhavet va iti swikartum shakyate syat syat syatam syuh syah syatam syata syam syava syama are the forms in that if we see here विधिलिङ्गकारः प्रथमपुरुष एकवचन स्यात् इति आगच्छति अस् धातोः यद्यद्धातु वयम् अस्ति स्तः सन्ति इति जानीमः तत् लट्लकारे भवति एतत् विधिलिङ्गकारे भवति सर्वे जानन्ति एव आततायिनः आततायिन् इति शब्द वि विल् सी द डेफिनेशन् आफ् आततायिन् इन् द विशेषटिप्पणीभाग बट् द शब्द इस् आततायिन् साधारणरीत्या दुर्जनः दुर्जनाः ये सन्ति ते सर्वे आततायिनः इति स्वीकर्तुमपि शक्यते बेड् पीपल् नौ द पीपल् हु हव् कम् टु किल् द पाण्डवास् हन्तुम् उद्यतान् एते सर्वे आततायिनः आततायिनः आततायिन् शब्दः नकारान्तः पुल्लिङ्ग द्वितीयाभक्ति बहुवचनम् एतान् एतत् शब्दः एष एतौ एते एतम् एनम् एतौ एनौ एतान् एनान् नकारान्त सर्व सर्वनामशब्दः पुल्लिङ्ग द्वितीयाभक्ति बहुवचनम् तत्र आततायिनः एतान् सर्वं तत्र कनेक्टेड् वर्ड्स् यथा वयम् अस्माभिः पूर्वं दृष्टमस्ति आल् कनेक्टेड् वर्ड्स् शुड् बि इन् द सेम् लिङ्ग विभक्तिवचन यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषणस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेष्यस्यापि हत्वा त्वान्ताव्यत्वा प्रत्ययः पापम् अघः किल्बिषं नपुंसकलिङ्गप्रथमैकवचनं पापम् एव अव्ययम् अस्मान् अगेन् अस्मत् शब्दः दकारान्त त्रिलिङ्गकः अस्मत् शब्दः द्वितीयाविभक्ति बहुवचनं माम् मा आवाम्नौ अस्मान्नः आश्रयेत् आ उपसर्गपूर्वक श्री तत्र श्रीं सेवायाम् इति धातुः अस्ति आ उपसर्गपूर्वक श्रीं सेवायाम् इति धातुः तत्र उभयपदी मध्ये भवति अत्र परस्मैपदी प्रयोगस्तावत् क्रियते विधिलिङ्ग्लकारः अगेन् when he has used syat in the first sentence again he is trying to use the same lakara itself vidhiling lakara ashrayet again these are vidhi tatra again we can see one sukshma again vidhi he is trying to justify his stance by using the vidhiling lakara he is not using a lot lakara which would rather give lot and vidhiling technically if we see are samanarthaka vidyarthakaha eva परं साधारणप्रयोगे पश्यामश्चेत् लोट् लकारे किञ्चित् तत्र देर् इस् अ स्माल् लीवरेज् दट् वि मे आर् मे नाट् डु देर् इस् अ स्माल् एक्सेप्शन् रूल् विच् कम्स् इन् लोट् लकार बट् वेन् वि यूस् विधिलिङ्ग् लकार इट् इस् अ मस्ट् अण्ड् शुड् दट् वि शुड् डु इट् देर् इस् नो एक्सेप्शन्स् अप्लिकबल् विच् इस् वै तत्र केचन भाष्यकाराः उपन्यासकाः वदन्ति तदर्थमेव स्वयं वद इति दत्तमस्ति सत्यं वदेत् इति न दत्तमस्ति दट् इस् सत्यं वद वदतु वदतात् वदतां वदन्तु वद वदतात् वद इस् ओन्लि गिवन् लोट् लकारः यतः अगेन् वी हाव् सम् एक्सेप्शन्स् तत्र प्राणत्यागसमये वा प्राणरक्षणसमये एण्ड् इफ् देर् इस् अ धार्मिक् वे धर्म अविरोधेन यदि इफ् यु हव् टु सम्बडीस् लैफ् देन् देर् केन् बी अ यूसेज् आफ् असत्यम् इस् सम् आफ् द एक्सेप्शन्स् विच् हव् बीन् गिवन् इन् द मनुनीति therefore satyam vada only has been given. But here Arjuna is using vidhiling lakara to stress that this is what will surely happen. Evam ashrayet lingeva tatra tad bhavedeva ashrayet. So we were seeing the vyutpatti of ashrayet. A upasarga purvaka shring sevayam iti dhatuhu tatra sakarmaka dhatu ubhayapadi dhatu. Here we have the parasmaipadi form in the lakara called vidhiling lakara. Tatra prathama purusha ekavachanam ashrayet ashrayetam ashrayeyuhu ashrayeh ashrayetam ashrayeta ashrayeyam ashrayeva ashrayema would be the general forms. Evam tatra vakyadvayam prathama vakyam tavat positive vakyam tatra we do not have any benefit tatra we do not have any benefit tatra dhartarashtran hatva kaurava sainikan tatra sainyatthan janan hatva kidrshi anandaha bhavet tatra kimapi anandaha nasyadeva tatra there will be no ananda for us. The second vakya will be etan dushta janan hatva ashanam krutva tan marayitva asmakam papam eva ashrayet. We will get only papa and nothing else can be the benefit. Rajyam va bhogani va sukhani va kimapi na bhavati tatra kimapi prayojanam nasti iti ativa nischaya manasa saha arjunaha sva vishadavasthayam nam prati vadati. Hey janardana dhartarashtran nihatya naha ka priti hi syat. What prayojanam can we have tatra atatayinaha yete hatva sthitan sarvan hatva asmakam kevalam papam bhavati. We get only papa. There is no other any prayojanam or any benefit which we can ever get out of killing them. So even if somebody says, nee, you will get bhoga, you will get rajyam, and this is your dharma or whatever, he is telling again, he is using dharma shastra also and trying to tell, I am going to get papa only. Tatra vishesha tippanyam pashyamaha, dharma sukshmam vishesha tippanyam pashyamaha. Sandhihi, syat janardana, syat janardana, tatra jashtva, prathamataya jashtvaha bhavati, anantaram syat tata da bhavati. Da bhavati anantaram chutva sandhi bhavati da stane anantaram prathamataya first letter of that varga replaced by the third letter, it will become syad janardana. Then again what will happen, stoshtunashtuhu, you will again get, it will become syad janardana chutva sandhi. Eva ashraye dasman, again we have two sandhis there. Eva ashrayete dirga sandhi and ashraye dasman ta replaced by the first letter by third letter jashtva saranamasti. Hatva itan, hatva etan, a plus a, I, vriddhi sandhihi, tavadeva. Anantaram, nihatya, nihatya visa, ni upasarga purvaka, han dhatoho, lepratya deshaha. It will be, if there is no upasarga, it will be han plus tva, hatva. But the rule is, yadi upasarga ha agachati chete, tatra tvastane, leprayoga ha yeva kartavya ha. We have seen this before, it will be natva. Aham devam natva karyalayam gachami. But if you use the upasarga pra, it become pranamya sa devam aham karyalayam gachami. Pranamya. So whenever upasargas are used, we should not use tva pratyaha, we should use lya pratyaha, which is why nihatya isti asti no cheta hatva iti bhavati. Next, janardanaha jana ardha plus lyu bhavati, tatra lyu pratyadeshaha bhavati. Janan yaha ardayati, tatra ये यद्यत् वांछन्ति तत् सर्वं ददाति तत्र सर्वेषां जनानां आर्तीन् तत्र नाशयित्वा आर्तिहरः एषः अनन्तरं यथा पुरुषार्थाः याचन्ते तथा करोति. वाट् सम्बडी रीसेंटलि वाज़ आस्किंग् वै डस् द लॉर्ड् हैव् फोर् हैंड्स् वै इज़् इट् नाट् दिस् थिङ्ग् इज़् इट् बिगर् टु ह्यूमन् बीङ्ग्स्. सो देर् आर् फोर् पुरुषार्थास् वेरि जोवियलि वन् आफ् द बारास् गेव् द आन्सर् पुरुषार्थाः चत्वारः धर्म अर्थ काम मोक्ष. ये जनाः धर्मं वाञ्छन्ति ये अर्थं वाञ्छन्ति ये कामं वा मोक्षं वाञ्छन्ति तेभ्यः झटिति दातुं शक्यते. इमीडियट्ली ही कैन गिव फ्रॉम हिज हैंड. ही नीड नॉट मेक द अदर पर्सन वेट व्हेन टू हैंड्स आर बिजी. ही कैनॉट टेल माई हैंड्स आर बिजी, आई शुड गिव यू लेटर. सो फोर पुरुषार्थास् फोर हैंड्स. तादृशः यः ये ये जनाः पुरुषार्थान् याचन्ते यथा सः ददाति तादृशः पुरुषः जनार्दनः. वट् एवर् पीपल् वाण्ट् दट् हु गिव्स् हि बिकम्स् जनार्दनः. एवं हत्वा अस्माभिः दृष्टमस्ति हन् प्रत्ययः, धार्तराष्ट्रः अस्माभिः दृष्टमस्ति धृतराष्ट्रस्य अपत्यं पुमान धार्तराष्ट्रः धार्तराष्ट्राः अपत्यानि पुमांसः ते धार्तराष्ट्राः एवं तद्धितान्तः व्यवसिन्तिल्यत् इदानीं तत्र पश्यामः आततायिनः इत्युक्ते के सर्वदा तत्र शॉर्ट नोट्स कृते आगच्छति परीक्षा परीक्षार्थिनः कृते पीपल आर राइटिंग एग्जाम दिस इज अ वेरी वेरी फेमस शॉर्ट नोट्स आततायिनः सो द डेफिनेशन ऑफ आततायिनः गोस समथिंग लाइक दिस तत्र इट शुड फर्स्ट वर्ड शुड बी अग्निदः अग्निदः गरदः शस्त्रपाणिः धनापहः क्षेत्र दार अपहर्ता च षडेते आततायिनः एते षट् कार्याणि पीपल हु डू दीस काइंड ऑफ six activities are called as atatayinah any of the six activities actually they will be called as atatayinah so what is that agni dah dah ityukte dadati agnin dadati iti agni dah like we have clouds are called as jaladah jalam dadati which gives water jalam dadati iti jaladah tatha eva agni dah agnin dadati iti agni dah agni where did our friend Duryodhana and people give agni to people they are somewhere where did they do that agni dah we are able to remember agni dah Duryodhana's they gave fire to good people tatra smaranam asti va भवतु तत्र लाक्षागृह प्रसंगः इफ यू रिमेंबर दैट लाक्षागृह प्रसंग वेर दे एक्चुअली मेड द पांडवास टेल दे मेड देम दे टोल्ड देम दैट तत्र लाक्षागृहे तत्र वासं कर्तुं शक्यते दे बिल्ट अ वेरी वेरी ब्यूटिफुली मेड हाउस ऑफ वैक्स एंड दे मेड द पांडवास स्टे देयर एंड देन दे डिसाइडेड टू गिव द फायर बाय देन अरक्कमाळिगे वेरी गुड करेक्ट करेक्ट लाक्षागृह So they did that, and by then, luckily, the Pandavas got to know. They made a tunnel, and they went to the Ekachakra Nagaram Prati. They went into that place. So in the Gupta Ritya, they went away. So Agni Daha, a person who keeps fire to people's houses. Earlier in the villages, this was one of the way when people used to take revenge. Agni Daha, it is a very very big sin to do this. Agni Daha. Second thing is garadah gara ityukte visham one who gives poison to others physical poison which is there with the intention of killing them if they give them poison so again here we have an incident wherein what they do is anybody remembers garadah visham kada bhavati iti incident Bhima, correct, correct. For Bhima, what they do is, for Bhima Krite, Bhima Sena, they mix lot of good food with big, big ladus they give. And then they put him into a carpet, they rotate him and push him down. Tada Kim Bhavati, again, if we see all these activities of Kauravas, whatever they did for Pandavas, only resulted in the benefit of Pandavas and in the general benefit of the world also. Which is what happens again if we see Agnidaha when they did that they went to the Ekachakra Nagaram they did the Bakasura Hatya they killed lot of demons in the forest when they went through the tunnel to the forest they killed all the miscreants who were creating difficulties they killed them they cleansed the Rajya actually so that is a good thing Garadaha again Bhima was pushed into the water he all the way to the Patala Loka there he met the Nagas and he got Vara from them They also realized that he is Vayuputra and then they gave him lot of boons and also there is one version wherein one of the Naga Kanya also later on he marries her is also there. There is one more version in that. So it also became a benefit for them. Garadah Visham Dadati Saha Shastrapani hi Idani Meveta Santi. Even now they are all Shastrapani only. Kauravas have taken weapons and they are trying to kill the Pandavas. Otherwise also which is why in our houses sadhan ritya yadi pashyamaschet yadi tatra balakaah tatra churikaya kelantas santi chete shre jeshtaah vadanti tadrasha kelanam mastu iti tarhi chete tatra shastrapanihi even sometimes playful intention shastrapanihi na bhavet asmaabhi iti tatra jeshtaah vadanti dhanapah we have seen that tatra dyuta kelan kridaya tatra dhanapah dhanam apaharat dhanapah evam person people who snatch away the wealth of others forcibly through cheating or through other means te api dhanapaha eva तत्र यदि देन वी फी सी ऑल द चिट फंड्स एंड फाइनेंशियल कंपनीज दे विल ऑल बिकम हा दे विल बिकम आततायिनः इट वे इट ओनली दे विल आल्सो बिकम आततायिनः क्षेत्रापहर्ता न तु केवलं धनं यदि क्षेत्रं इवन प्लेस इफ प्लेस साइट और एन एरिया और अ ग्राम हियर दे हैड टेकन द एंटायर राज्य राज्यापहर्ताः एते सर्वे दैट वी हैव सीन एंड दारापहर्ता दाराः कैन एनीबडी टेल द विशेष स्पेशल करैक्टरिस्टिक्स ऑफ द वर्ड दाराः इट इज अ स्पेशल वर्ड वेरी वेरी मेनी ऑफ अस नो जस्ट टू थिंक द वर्ड दाराः अर्थं तावत् सरलमस्ति पत्नी अपहर्ता वैफ पुलिंग तदेव तत्र वैफ अपहर्ता किडनैपर और टेकर ऑफ द वैफ अनविलिंगली तत्र विदाउट द वैफ दैट इज अनविलिंगली ट्राइंग टू टीज दैट वैफ एंड पुल परम द वर्ड दाराः आई एम जनरली आस्किंग ओके दाराः इति शब्दस्तावत् पुल्लिंग शब्दः नित्य बहुवचनांतम् धरति इति धाराः भवितुं परं तत् धरति तत्र महाप्राणं भवति एतद् न भवति तत्र व्युत्पत्तिरीत्या न पृष्टवान् दि वर्ड इट इज अ पुल्लिङ्ग संस्कृतभाषायां कलत्रम् इति तत्र नपुंसकलिङ्गशब्दं वर्तते पत्नी कृते पत्नी द्योतयितुम् अनन्तरं दाराः इति यदस्ति इट् इस् नित्य बहुवचनान्त पुल्लिङ्गशब्दः सो वी हेव् ओन्ली वन् फार्म् आफ् इट् दाराः दाराभिः दारैः दारेभ्यः दारेभ्यः दाराणां दारेषु दट् विल् बी द शब्द फार्म् इट् सेल्फ् इट् इस् अ नित्य बहुवचनान्त पुल्लिङ्गशब्दः विच् मीन्स् वैफ् आल् वैफ् ओन्ली एवं तत्र पत्नी इति स्त्रीलिङ्गशब्दः कलत्रम् इति नपुंसकलिङ्गशब्दः दाराः इति पुल्लिङ्गशब्दः त्रिषु लिङ्गेष्वपि तत्र भार्यां द्योतयितुं शक्यते भवतु दारापहर्ता सो अत्र आततायिनः इत्युक्ते प्रत्येकस्यापि एतस्य कार्यस्य कर्ता आततायिन् भवति परं एते सर्वे षडपि कृतवन्तः दे डिन्ट् वाण्ट् टु लीव् औट् इवन् वन् दे वाण्टेड् टु बी अण्ड् दे वाण्टेड् टु हेव् अट्लीस्ट् वन् एक्साम्पल् फार् ईच् आफ् दिस् अण्ड् दे हेव् डन् दिस् देर् फोर् दे बिकतायिनः नौ हौ डिड् अर्जुन टेल् तत्र आततायिनः किल्लिङ्ग् आततायिनः इस् अ पाप बिकास् अर्थशास्त्रे तत्र अर्थशास्त्रमध्ये इन् अर्थशास्त्र देर् इस् वन् वाक्य विच् सेस् दट् आततायिनः यदि वयं हन्मि इफ् वि किल् बेड् पीपल् वि गेट् इवन् देर् पापा टु अस् दट् इस् समटैम्स् इवन् देर् इस् वन् मोर् थिङ्ग् बै टाकिङ्ग् अबौट् बेड् पीपल् वि गेट् दोस् द पापा आफ् दट् बेड् पीपल् विच् इस् वै दे कीप् टेलिङ्ग् डु नाट् टाक् अबौट् द बेड् थिङ्ग्स् अबौट् अदर्स् whatever that papa of they doing it will also come to you because you are talking about it tatra prantiya bhashayam tatra loha santi tatra yadi vayam anyesham dushta karyanam vishayam tatra sambhashan kurmaschete tad dushta karyasya phalam api vayam vindama iti tatra lokoktirasti evam if that is the case then by killing them also we get papa is written in the arthashastra but then what happens then we have manuniti and see that one more vakyam in manunityam saha vadati atataina mayantam hanya deva avicharayanne yadi ayantam atataina asti chete if we have an atatain who comes in front of us avicharayanne hanyat do not think about them at all yatah na atatai vadhe doshah hantur bhavati kascha can be a dosha now what happens we have a conflicting shastra arthashastra says do not kill them manu shastra says dharma shastra says kill them then what should we do then again now we have to go to yajnavalkya smriti what yajnavalkya smriti does it says smrityoho virodhe nyayastu balavan vyahrutah smrityoho virodhe that is if you have a virodha between two smriti vakya both manu and arthashastra here we have smriti vakyas if we have a conflicting then take the one which is more balavan kaha atra dharma shastra eva balavan artha shastra tu balavat dharma shastram iti sthitih this is what yajnavalkya finally gives the guidance and therefore so because people do tell tatra asmabhi purmeva charchitam asti tatra केचन जनाः वदन्ति भगवद्गीता तावत् युद्धं युद्ध युद्धप्रेरणाशास्त्रं युद्धप्रेरणाग्रन्थः भगवद्गीता इति वदन्ति नैव ओन्ली वेन् वि अण्डर्स्टाण्ड् द गीता ग्रन्थ वेन् वि गेट् डीपर् इन् टु इट् वि विल् अण्डर्स्टाण्ड् आल् दीस् धर्मसूक्ष्म केवलं तत्र साधारणरीत्या जनाः वदन्ति आततायिनः हत्वा पापम् एव भवति इति साधारणरीत्या जनाः वदन्ति बट् वेन् वि सी द धर्मशास्त्र अण्ड् अण्डर्स्टाण्ड् द कान्फ्लिक्ट् अण्ड् आल्सो अण्डर्स्टाण्ड् विच् वन् वि हव् टु टेक् देन् वि क्लियर्लि गेट् द ऐडिया एवमेव अस्ति अत्र अयं श्लोकः एवम् आगामि श्लोका नम्बर् 37 कृते गच्छामः 36 प्रायशः अर्थागमनम् अभूत् इति मन्ये 36 तावत् निहत्यधार्तराष्ट्रान्नः का प्रीतिस्याज्जनार्दन पापमेवाश्रयेदस्मान् हत्वैतान् आततायिनः इति 36 भवति 37 मध्ये पश्यामः श्लोकं वदामि पुनः अनुवदन्तु तस्मान्नार्हा वयं हन्तुम् धार्तराष्ट्रान् स्वबान्धवान् स्वजनं हि कथं हत्वा सुखिनः स्याम माधव पूर्णश्लोकं द्विवारं पठन्तु तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् स्वजनं हि कथं हत्वा सुखिनः स्याम माधव श्यामः इति अस्ति श्याम भवितव्यं परच्छेदः पश्यामः कर्तृकर्म क्रिया श्याम ओके कर्तृ वयं समीचीनं वेरि गुड् करेक्ट् भवतु वयं स्मः नार्हाः अपि स्वीकर्तुं शक्यते स्मः नार्हाः अपि तत्र अगेन् वी हेव् टु सेण्टेन्सस् अगेन् वी हेव् टु सेण्टेन्सस् वाक्यद्वयं वर्तते पश्यामः समीचीनं वाक्यद्वयं वर्तते प्रथमं तावत् हे माधव हे माधव हे मा रमा लक्ष्मी धव पति हे रमायाः पते हे लक्ष्मीपते हे माधव तस्मात् कारणात् कारणं तावत् किं वाट् द रीसन् पापम् अस्मान् आश्रयते आश्रयेत् तत्र वि ओन्लि गेट् पापम् by killing our own family, by killing these atatayinah, only papam iti karanat, tasmat karanat, swabandhun kauravan tatra vayam hantum na arhaha. We are not fit. Vayam hantum na arhaha. First sentence very simple. Atah tasmat karanat, by this syam correct. Asmat karanat, tasmat karanat, tatra papa ashraya karanat, papa ashraya karanat, अस्माकं निजबन्धून् तत्र धार्तराष्ट्रान् कौरवान् ये सन्ति तान् हन्तुं वयं न अर्हाः देयरफोर वि आर् नाट् एलिजिबल् वि आर् नाट् फिट् टु किल् वि आर् नाट् जस्टिफैड् टु किल् अवर् ओन् पीपल् नेक्स्ट् सेकेण्ड् सेण्टेन्स् तावत् स्वजनं हत्वा कथं सुखिनः स्याम स्वजनं हत्वा अस्माकं निजबन्धून् हत्वा कथं सुखिनः स्याम अगेन् वेरि वेरि सिम्पल् इन् mind in state of delusion when people are confused they start repeating what they have told this is a very very simple this thing we can see here when people are confused we see that they are trying to repeat things and they are trying to solve the whatever they are thinking and they are trying to solve it for themselves and also try to logic or give reasons to what they are trying to tell tadeva atrapi asti he has told both these points तत्र उभयमपि वाक्यं पूर्वम् उक्तमस्ति, तथापि सः पौनःपुन्येन तत्र पिष्टपेषणं कुर्वन् अस्ति. पिष्टपेषणन्यायं, वि आर् ट्रैङ्ग् टु पौडर् द सेम् अण्ड् द सेम् पौडर्. सो एवं तत्र पश्यामश्चेत् वाक्यद्वयं अस्ति. सरलं वाक्यं, तर्हि किञ्चित् शीघ्रं पश्यामः. हे माधव, तस्मात् कारणात्, तस्मात् तत्र पापाश्रयकारणात् स्वबान्धवान् अस्माकं निजबन्धून् बन्धुमित्रवर्गजनान् ये सन्ति तान् धार्तराष्ट्रान् कौरवजनान् कौरवसैन्यस्थान् सर्वान् वयं हन्तुं न अर्हाः. वयं तत्र तान् मारयितुं न योग्याः, तान् नाशयितुं न योग्याः, न समर्थाः. तत्र सामर्थ्यमित्युक्ते मोर् आफ् जस्टिफिकेटेड् सामर्थ्यम्, इट् इस् नाट् अबौट् केपबिलिटि. न योग्याः, न अर्हाः, वि आर् नाट् एलिजिबल् टु तत्र टु किल् देम्. अपि च हि इण्डीड् अगेन् हि इस् पुटिङ्ग् दट् एव हि आल् दीस् हीस् ट्रैङ्ग् टु स्ट्रेस् द पायिण्ट्. हि इण्डीड् शुवर्लि स्वजनम् आकं बन्धुजनान् हत्वा कथं सुखिनः स्याम. हौ केन् वि एवर् बि हेपी बै किल्लिङ्ग् अवर् ओन् पीपल्? वि विल् ओन्ली गेट् दुःख अण्ड् पाप, अन्यत् किमपि प्रयोजनम् अस्ति इति सः वदति. तावदेव. माधव, हे माधव, अरान् पुल्लिङ्ग सम्बोधन एकवचनं, तस्मात् पञ्चमी विभक्ति एकवचनं, तस्मात् कारणात् स्वबन्धून् धार्तराष्ट्रान् आल् कर्मपदं द्वितीयाभक्ति बहुवचनमेव. वयं, वयम् इस् द कर्तृपदं हियर्. तत्र प्रथम तत्र अस्मच्छब्दः अस्माहम् आवां वयं, प्रथमाविभक्ति बहुवचनं, हन्तुं तुमुन्नन्ताव्ययं, तुमुन् प्रत्ययः, न अव्ययम्, अर्हाः, अर्हः, अर्हौ, अर्हाः, प्रथमाविभक्ति बहुवचनं, हि अव्ययम्, इण्डीड्, अवश्यं, ध्रुवं, श्योर्लि, स्वजनं, स्वजनम् अगेन् द्वितीयाभक्ति एकवचनं, हत्वा कथं बोतारव्ययं, हत्वा त्वान्ताव्ययं, कथं तावताव्ययं. सुखिनः, सुखिनः अगेन् पुल्लिङ्ग प्रथमा बहुवचनं, सुखिनः वयं, सुखिनः कथं स्याम, स्याम वि सा दिस् आलरेडि असुभुवि धातुः विधिलिङ्गकारः. स्याम उत्तमपुरुष बहुवचनं, वयं स्याम उत्तमपुरुष बहुवचनं विधिलिङ्गकार, वि जस्ट् सा द फार्म्स् इन् द प्रीवियस् श्लोक. यदि तत्र अर्थस्तावत् अतीव सरलम् अस्ति. वि आर् नाट् फिट् टु किल् देम् अण्ड् इफ् यु किल् देम् वि ओन्लि गेट् दुःख, एवं सः वदति. सन्धि तस्मान्न, by seeing the two nakaras we may think it is namudagama sandhi, but it is not. Tasmat na, simple anunasika sandhi, first letter replaced by the fifth letter, anunasika, therefore tasman na, tasman narhaha, na arhaha, narhaha dirgha sandhi, arhaha vayam, arha vayam visarga lopa sandhi, vayam hantum anuswara, hantum dhartarashtran anuswara, swajanam hi anuswara, katham hatva anuswara. So all simple sandhis which we have seen before, no complications, so can go a bit faster. Samasa bhagam swabandhavaha, swasya bandhavaha, swabandhavaha, shashti tatpurusha, tan swabandhavane, anantanah swasya janah, te swajanah, we have seen this. Madhavah, mayah, ramayah dhavah, रमाधवः, माधवः, लक्ष्मीपतिः, उमाधवः विल् बि उमायाः धवः, शिवः, उमाधवः, एषः माधवः. एवं तत्र लक्ष्मीपतिः, माधवः, कृष्णः. यु हव् सीन् दीस् व्युत्पत्तीस् बिफोर्. हन्तुं, हन् प्लस् तुमुन्नन्त, बान्धवः अगेन् बन्धु प्लस् अणुप्रत्ययः, स्वार्थे अणुप्रत्ययः, बान्धवः, बन्धु प्लस् अणु टेक्स् बान्धवः, अगेन् वि गेट् वः, बान्धवः, कृदन्त, हत्वा, हनु प्लस् त्वा, पूर्वमेव दृष्टमस्ति. धार्तराष्ट्रः धृतराष्ट्रस्य अपत्यं पुमान् दृष्टमस्ति. सुखिनः, सुखमस्य इति सुखी, सुखिनौ, सुखिनः. वि हव् सीन् मतु प्रत्ययः, वि हव् सीन् सिमिलर् फार्म्स्. दण्डमस्य अस्ति इति दण्डी, एवं सुखमस्य अस्ति इति अस्य वा अस्मिन् अस्ति इति द प्रत्यय मतुप् प्रत्ययः. इनि प्रत्ययः हियर् इस् यूस्ड्. सुखी, सुखमस्य अस्ति इति वा अस्मिन् अस्ति, येषु, येषां वा येषु अस्ति इति सुखिन् सुखिनौ, सुखिनः. सो वि हव् सीन् दट् अगेन् द अदर् वेरियेशन् आफ् बलवान्. सिमिलर्ली सुखी, दण्डी, आल् दीस् आर् देर्. देही, देहम् अस्य अस्ति इति देही. वि इन् सेकेण्ड् चाप्टर् वि विल् सी द यूसेज् आफ् द वर्ड् देही, दट् इस् वन् विच् हेज़् अ बाडी. आत्मन् विल् बि काल्ड् अण्ड् देही. विल सी दट लेटर आन एवं इनि प्रत्ययः मतु प्रत्ययः इनि फॉर्म पश्यामः इदानीं सरल श्लोकमासीत् अतः शीघ्रं तत्र अस्माभिः कृतमस्ति सिमिलरली वी विल सी दिस नाउ ही गेट्स इनटू द नेक्स्ट मोड ऑफ जस्टिफिकेशन इंटरेस्टिंग श्लोकास एंड इंटरेस्टिंग कॉन्सेप्ट्स वी विल हैव दिस वी विल स्टार्ट ऑफ विद द श्लोक वी विल सी हाउ मच वी कैन कवर टुडे श्लोकं वदामि सर्वे अनुवदन्तु यद्यप्येते न पश्यन्ति लोभोपहत चेतसः कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् कथं न ज्ञेयम् अस्माभिः पापादस्मान् निवर्तितुम् कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन श्लोकं द्विवारं पूर्णतया अनुवदन्तु ट्रै चाण्टिङ्ग् द श्लोक इस् टु टैम्स् एण्ड् देन् पदभेदः पश्यन्तु कर्तृकर्मक्रिया हौ मच् एवर् वी केन् सी अतीव सरलमस्ति सिम्पल् श्लोक Again, a single concept, single sentence can be formed with the two parts to it. Pashyanti, na pashyanti, samichinam, that is the first part. Second, kriyapadam nasti, param, vakyapurani pashyamaschete, vakyapurane pashyamaschete. Te na pashyanti, yadi te na pashyanti, तर्हि अस्माभिः ज्ञेयमस्ति तावदेव श्लोक वाक्यम् इफ् दे आर् नाट् सीङ्ग् द पाप् दट् एते न पश्यन्ति नौन् यदि एते न पश्यन्ति जनाः पश्यामः यदि एते सर्वे लोभोपहत चेतसः पापं न पश्यन्ति तर्हि अस्माभिः दृश्यते किल अस्माभिः कथं न ज्ञेयमस्ति अस्माभिः कथं तत्र किमपि तत्र प्रयत्नं न स्वीकृतम् इति वदति वेरि सिम्पल् फस्ट् पार्ट् हि ट्रै हि टेल्स् दट् ईवन् दोस् पीपल् आर् नाट् सीङ्ग् द पाप इन् डूयिङ्ग् दिस् कैण्ड् आफ् आक्टिविटि वाट् अर्जुन इस् ट्रैङ्ग् टु ज्ञेयं पूर्णतया क्रियापदं न भवति पश्यामः वि विल् सी ज्ञातुं योग्यं वि विल् सी दट् तत्र वाट् अर्जुन इस् प्रियम्प्टिङ्ग् द क्वशन्स् इफ् सम्बडी टेल्स् that they are trying to kill you, then why are you sitting quiet? You also go and kill them. If somebody tries to kill you, you give them back. If somebody is asking that question, Arjuna is trying to preempt these kind of questions and also is trying to answer intelligently for himself. That is why, yadi te na pashyanti, yete tatra dosham na pashyanti, yadi yete janaha papa lobopahata chetas, dosham na pashyanti, param asmabihi tatra dosham, तत्र अस्माभिः दृष्टमस्ति तर्हि कथम् अस्माभिः न ज्ञेयम् अस्माभिः कथं ज्ञातुं योग्यं नास्ति इति सः वदति कुलक्षय कृतं दोषम् ही इस् गोइङ्ग् टु टाक् अबौट् कुलधर्म कुलनाश दोष विच् इस् वाट् वि विल् विल् आल्सो सी दट् इन् डीटेल् अग्रे पश्यामः इदानीम् अन्वयार्थं पश्यामः हे जनार्दन यद्यपि यद्येपि अस्ति यद्यपि भवितव्यं यद्यपि लोपहत चेतसः एते कुलक्षयकृतं दोषं मित्रद्रोहे च पातकं टू टैप्स् आफ् दोष इस् टाकिङ्ग् अबौट् कुलक्षयकृतम् अण्ड् मित्रद्रोह टू टैप्स् आफ् दोष कुलक्षयकृतम् अन्यच्च मित्रद्रोहे च पातकं यदि एते लोभोपहत चेतसः धार्तराष्ट्राः कौरवसैनिकाः न पश्यन्ति दे आर् नाट् सीङ्ग् फस्ट् पार्ट् परं प्रपश्यद्भिः अस्माभिः आर् वि नाट् सीङ्ग् दट् वि आर् सीङ्ग् वि नो द दोष औट् आफ् इट् प्रपश्यद्भिः अस्माभिः अस्मात् पापात् फ्रम् दिस् सिन् कथं निवर्तितुं न ज्ञेयम् हौ आर् नाट् सीङ्ग् एनी आल्टर्नेट् वे औट् आफ् टर्निङ्ग् अवे फ्रम् दिस् कैण्ड् आफ् पापा निवर्तितुम् अस्मात् पापात् निवर्तितुम् कथम् अस्माभिः न ज्ञेयम्. वै डोण्ट् वि ट्रै टु फैण्ड् औट्, वै डोण्ट् वि ट्रै टु लर्न्, अवगमनं कर्तुं किमर्थं वयं तत्र प्रयत्नं न कुर्मः इति सः पृच्छति. सरलमस्ति, पश्यामः. यद्यप्येते, यदि अपि एते एते कौरवधार्तराष्ट्रसैनिकाः सर्वे सन्ति लोभोपहततसः, लोभेन आविष्टहृदयाः, आविष्टचित्ताः, आविष्टमानसः, एते धृतराष्ट्रजनाः, धार्तराष्ट्र सैन्यस्थाः ये सन्ति, एते सर्वे दे आर् डेल्यूडेड् बै लोभ. वेन् देयर् मैण्ड् इस् पवर् बै ग्रीड्, दे विल् नेवर् नो वाट् इस् रैट्, वाट् इस् राङ्ग्. सो दे आर् नाट् सीङ्ग् दट् दोष. वाट् आर् द टु दोष? कुलक्षयकृतं दोषम्. By killing all these people, we are trying to destroy the entire clan, the entire family lineage of the people. So, dosha number one, kulakshayakram. Second tavat, mitra droham patakam. That is, if we are doing droha to the mitra, mitra here, family, friends, everybody together, mitra drohecha patakam. These two kind of doshas, the pataka, they are covered by greed, they are camouflaged by greed, therefore, they will not be able to see that. So, that is, first part of the sentence, they are not able to see, fine boss. But then, asmabhi, prapashyadbhi asmabhi, we know that, I have realized it now, we have realized acharyan, matulan, sarvan, hatva, papam eva ashrayat, we get prapa, we have already seen this, prapashyadbhi asmabhi, pashya, pashya, again, avalokayadbhi asmabhi, yetasmat, papat, patakat, doshat, aghat, nivartitum, nivaranam kartum, we should find an alternate way, how to turn away from this. Katham na jnayam, why haven't we tried this? The whole thing is, we will see the details or the vishesh tippani in the coming class, but interestingly, it is such a vyangya dhvani here. If you see, Arjuna is telling Krishna, who did all the four strategies to avoid the war. Yuddham Nivartitum, Krishna was the person who did all the four. Sama, Dana, Bheda, Da. So, he was the one who went for Dautya. Dutatvena Krishna Gatavane. Tatra Gatva Prathamam Tavat Samaritya Saha Uktavane. Yat Rajyam Asti Tat Punaha Dadatu. Yat Rajyam Bhavata Dyutena Tamasti Tat Dadatu. Samaritya Saha Prishtavan. Te Uktavantha Nadiyate. Anantaram Sama Dana. Dana, what he said, you take some Rajya for yourself and you give some of them at least. He said that. He said, okay, you do this. Give at least a few portions. They said no. Then he came down, he said, give us five states, no. Five villages, no. Then they said, even five needle of land also we cannot give. This, that also we know. So he tried Samariti, he tried Dhanariti. Then he even did a Bheda Tantram. He did that, he tried doing that strategy. He took Karna away and he told Karna, my dear friend Karna, you are actually Kunti Putra and so you do not give support to Duryodhana. Only because you are supporting him, Duryodhana is trying to play strong and fight it. If you give away, Duryodhana will obviously accept and this war will not happen. So please go away. So he also did Bheda also he tried doing it. Samam, Danam, Bhedam, Dandam. After that only Karna again told, I know that Duryodhana is a bad person, but he has helped me. Therefore it is my Mitra Samprapti and I should go away. We have seen that Panchatantram Sarvam Asmabhi Anekaihi Asmabhi Nyayate Mitra Bheda, Mitra Samprapti, all this. So in that he tried Mitra Bheda also. That also didn't work. Which is when finally this came. So interestingly, Arjuna is asking him only, Karmatu Nivartitum, how don't we see this and get away from this war? So he is asking this. Evam Asmabhi Krishnamasti. We are with 39th sloka. We will try to cover this sloka in detail again. We will see the Vishesha Tippani in the coming class, which is the coming Tuesday, which will be, 17th of January, that will be the Tuesday. We will try to see this in detail. It is a great opportunity that we have lot of elderly people who are doing Shastra Adhyayanam, Vedanta Adhyayanam, people who have been teaching Bhagavad Gita here, and people who have been in various other forte of their lives. Tadrusha Ativa, it is an elite discussion crowd which we have assembled together. Thanks to all of us for having taken up this and having supporting each of us in this journey, in this divine journey of understanding our Gita Mata. Sarvebhyah Dhanyavadan Tatra Vadami Ponav Punyena. Let us try to participate more actively and also learn this Bhagavad Gita together. Yathaditam Yathamati Vayam Adhyenam Kurmaha. Tavat Paryantam Sarvebhyah Dhanyavadaha. Ram Ram Ram. यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. एनी सजेशन्स इम्प्रूवमेंट्स एनी दोष इफ देर आर एनी मिस्टेक्स ऑल्सो प्लीज सेंड इट अक्रॉस वी विल करेक्ट इट सूटबली एंड बिकॉज ऑल आर लर्नड पीपल. So we are trying to learn this together. Any mistakes or suggestions, please let us know. Sarvebhyah Ram Ram Ram. Dhanyavadaha.